आत्मात्वं गिरिजामतिः सहचरा प्राणाः शरीरं गृहं पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः संचार